अर्जुन उवाच।
ज्यायसि चेत् कर्मणस्ते मता बुद्धिर्जनार्दन, तत्किं कर्मणि घोरे मां नियोजयसि केशव। व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे, तदेकं वद निश्चित्य येन श्रेयोऽहं आप्नुयाम्।
श्री भगवान उवाच।
लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मया नघ, ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनां।
ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनां, कर्मयोगेन
न कर्मणा मनारम्भात् नैष्कर्म्यं पुरुषो श्नुते, न च सन्न्यसनाथेव सिद्धिं समधिगच्छति।
न च सन्न्यसनाथेव सिद्धिं समधिगच्छति।
नहि कश्चित् क्षणमपि जातु तिष्ठत्य कर्म कृत्, कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः।
कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः, सर्वः प्रकृतिजैर्गुणैः।
कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन्, इन्द्रियार्थान् विमूढात्मा मिथ्याचारस्स उच्यते।
इन्द्रियार्थान् विमूढात्मा मिथ्याचारस्स उच्यते।
यस्तु इन्द्रियाणि मनसा नियम्यारभतेऽर्जुन, कर्मेन्द्रियैः कर्मयोगम् असक्तस्स विशिष्यते।
कर्मेन्द्रियैः कर्मयोगम् असक्तस्स विशिष्यते, असक्तस्स विशिष्यते।
नियतं कुरु कर्मत्वं कर्मज्जायो ह्य कर्मणः, शरीरयात्रापि च ते न प्रसिद्धेद कर्मणः।
शरीरयात्रापि च ते न प्रसिद्धेद कर्मणः।
यज्ञार्थात् कर्मणोऽन्यत्र लोकोऽयं कर्म बन्धनः, तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर।
तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर, मुक्त సంగ సమాచార